सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्, क्षणत्यागे कुतो विद्या, कणत्यागे कुतो धनम्. इत्युक्ते अस्माकं जीवने एकैकं क्षणमपि उपयुज्य विद्या सम्पादनीया, विद्यायाः अर्जनं करणीयम्. अत्र सुभाषितकारः वदति, वृथा कालयापनं मा कुर्वन्तु, समयस्य दुर्विनियोगं मा कुर्वन्तु. क्षणं नष्टं चेत् विद्या न सिध्यति. तथा एव धनं सम्पादयितुम् इच्छामः चेत् तत्रापि तदानीम् अपि एकैकेन कणेन वयं धनं सम्पादयामः. यदि कणं नष्टं चेत् अत्र कणम् इत्युक्ते लेशमात्रम् अथवा लघुपरिमाणं, लेशमात्रं कणं नष्टं चेत् सम्यक् रीत्या धनं न वर्धते. परन्तु अत्र वयं धनसम्पादनस्य विषये न चिन्तयामः, केवलं संस्कृतभाषायाः विषये एव वयं चिन्तनं कुर्मः. अतः वयम् अधुना कालयापनं विना संस्कृतभाषायाः अवगमनार्थं सक्रियाः भवामः. कुतो विलम्बः? आरम्भं कुर्मः. सम्यक्. अनन्तरं गते सप्ताहे वयं सप्तककारान् तेषां विषये वयं परिशीलितवन्तः, किञ्चित् अधीतवन्तः अपि. गृहपाठविषये तत्र एकं सम्भाषणं पठितवन्तः, अपि च सम्भाषणस्य आधारेण, सम्भाषणम् आधारीकृत्य तत्र प्रश्नाः सन्ति, प्रश्नानाम् उत्तरं लेखनीयम्. अत्र सप्तप्रश्नाः सन्ति. अधुना कादम्बरी भगिनी, भवती प्रथमतया प्रश्नं पठतु, अपि च उत्तरमपि ददातु.
अस्तु. सः कः? सः वरुणः. सा का? सा लता.
भगिनी भगिनी अत्र पश्यतु, एकवारं पश्यतु, अत्र गते सप्ताहे वयं सप्तककाराः इति सम्भाषणं पठितवन्तः. तत्र सम्भाषणस्य सम्भाषणम् आधारीकृत्य, बेस्ड् आन् द कान्वर्सेशन्, तत्र प्रश्नाः सन्ति. भवती दृष्टवती वा प्रश्नान्? अत्र कोष्टके प्रदत्तानि पदानि अत्र पश्यतु, अधोभागे किञ्चित् अत्र अत्र सूचना तत्र रक्तवर्णैः अक्षरैः सूचना दत्तमस्ति, दत्ता तत्र पठतु.
कथं सम्यक् उत्तमं समीचीनं सुन्दरम्?
न भगिनी, भवती सम्यक् न दृष्टवती इति भाति. अत्र अस्माकं गृहपाठः किम् आसीत् एकवारं सुबर महोदय भवान् वदतु, अत्र गते सप्ताहे अस्माकं गृहपाठः किम् आसीत्?
सप्तककारः. ओके. अभ्यासः कोष्टके.
सर्वे सर्वे एकवारं सर्वे तत् करपत्रं पुरतः स्थापयन्तु, सर्वे तत् करपत्रं पश्यन्तु, सप्तककाराः इति करपत्रं पश्यन्तु. तत्र गते सप्ताहे सम्भाषणं पठितवन्तः, सम्भाषणं सम्भाषणस्य आधारेण वयं प्रश्नानाम् उत्तराणि लिखामः. अधुना अधुना सर्वे पश्यन्तु, करपत्रं पश्यन्तु. महोदय भवान् पठतु, अत्र सूचनां पठित्वा अत्र किं कर्तव्यं वदतु.
कोष्टके प्रदत्तानि पदानि उपयुज्य यथोचितं प्रश्नान् रचयन्तु.
अधुना अत्र सूचनां पठितवान् भवान्, अहं पृच्छामि, यदि भवान् जानाति चेत् किञ्चित् वदतु महोदय, कोष्टके विभक्तिः का?
सप्तमी विभक्ति.
उत्तमं. प्रदत्तानि पदानि?
प्रदत्तानि पदानि कोष्टके द्वितीया विभक्ति.
उत्तमं. अत्र उपयुज्य इति पदमस्ति, परन्तु वयं भवन्तः न जानन्ति अत्र उपयुज्य इति पदं ल्यबन्तपदम् इति वदामः. ल्यप् इति एकः प्रत्ययः संस्कृतभाषायां धातुतः प्रत्ययाः विधीयन्ते. अत्र ल्यप् इति एकः प्रत्ययः, तथा एव क्टवतु एकः प्रत्ययः, क्ट अन्यप्रत्ययः. इत्युक्ते धातुः इत्युक्ते द रूट् आफ् द वर्ब्, टु द रूट् आफ् द वर्ब् वि आड् प्रत्यया संस्कृतम्. अत्र ल्यबन्तरूपम् उपयुज्य इति ल्यबन्तपदम्. यथोचितम् अत्र यदि भवन्तः चिन्तयन्ति चेत् अत्र यथा उचितं यथोचितम् इति भवति. अत्र सन्धिः अस्ति, अत्र सन्धेः नाम किम् इत्युक्ते गुणसन्धिः. प्रश्नान् रचयन्तु, अत्र प्रश्नान् विभक्तिः लिङ्गवचनं वदतु महोदय.
प्रश्नान् प्रथमाविभक्ति.
प्रश्नः, प्रश्नः प्रथमाविभक्ति एकवचनं. अत्र पदमस्ति प्रश्नान्, किं भवितुमर्हति अत्र? द्वितीयबहुवचनं महोदय, द्वितीयबहुवचनं. उत्तमं, पठतु महोदय. प्रथमं वाक्यं किम्?
अस्य नाम रघुवीरः. अस्य नाम रघुवीरः.
प्रश्नवाचकवाक्यं किम्?
अस्य नाम किम्?
उत्तमम्. अत्र भवन्तः जानन्ति वा, इदानीं पर्यन्तं वयं एतस्य, तस्य इति एव वयं जानीमः, परन्तु अत्र पदमस्ति अस्य, भिन्नं पदम्. इदानीं पर्यन्तं वयं किं पठितवन्तः षष्ठीविभक्तेः विषये? एतस्य नाम किं, तस्य नाम किम् इति वयं ज्ञातवन्तः, परन्तु अत्र दत्तमस्ति अस्य नाम. अत्र अन्यः, अन्यं सर्वनामपदमस्ति तत्र. अयम्, अयम् इति एकं सर्वनामपदं, तस्य अर्थः एषः. एषः इत्यस्य पर्यायवाचकपदमस्ति अयम्. अयं शब्दस्य षष्टिविभक्तेः रूपम् अस्य. अस्य नाम रघुवीरः. प्रश्नवाचकवाक्यं किं महोदय?
अस्य नाम किम्?
उत्तमम्.
रघुवीरः प्रातः योगाभ्यासं करोति. रघुवीरः योगाभ्यासं सदा करोति.
उत्तमम्. अन्यत् रूपेण अन्यं प्रश्नमपि प्रष्टुं शक्नोति वा? भवान् यदुक्तवान् तत्तु सम्यक् एव, परन्तु अन्यरूपेण प्रश्नं कर्तुं शक्नोति वा? कदा योगाभ्यासं करोति इति भवान् उक्तवान्, अन्यरूपेण प्रश्नं कर्तुं शक्नोति वा? इस् देर् एनी अदर् वे टु आस्क् द
कदा उपयुज्य प्रश्नरूपं?
कदा उपयुज्य भवान् उक्तवान्, परन्तु किं योजयित्वा वदतु? किं
रघुवीरः प्रातः किं करोति?
उत्तमं, तावदेव. तृतीयं,
तृतीयं रघुवीरः प्रतिदिनं त्रयोदश सूर्यनमस्कारान् करोति. रघुवीरः प्रतिदिनं कति सूर्यनमस्कारान् करोति?
उत्तमम्. अग्रिमं,
चतुर्थः रघुवीरस्य योगशाला कार्यालयस्य निकटे अस्ति. रघुवीरस्य योगशाला कुत्र अस्ति?
उत्तमम्. अहं पृच्छामि, रघुवीरस्य कार्यालयस्य निकटे किम् अस्ति?
रघुवीरस्य कार्यालयस्य निकटे योगशाला अस्ति.
उत्तमम्. अत्र निकटे, निकटे इति पदमस्ति. निकटे इति पदस्य पर्यायवाचकशब्दाः बहवः सन्ति. There are so many synonyms for निकटे, समीपे, पार्श्वे सकाशे सविधे एतानि सर्वाणि अपि पर्यायवाचकपदानि इति वदामः. निकटे इत्यस्य पर्यायवाचकपदानि. वदतु महोदय.
आरोग्यं सम्यक् अस्ति. आरोग्यं कथमस्ति?
अनन्तरम्
आरोग्यं कथमस्ति? सुनीता रघुवीरः च स्वास्थ्यसंरक्षणार्थं योगासनं कुरुतः. सुनीता रघुवीरः च योगासनं किमर्थं करोति?
किमर्थम् अत्र द्विवचने दत्तमस्ति. सुनीता रघुवीरः च तत्र अत्र द्विवचने वक्तव्यं कुरुतः. यदि भवान् जानाति चेत् करोति एकवचने. सुनीता योगाभ्यासं करोति. सुनीता रघुवीरः च योगाभ्यासं कुरुतः. वयं योगाभ्यासं कुर्मः. सर्वे जनाः योगाभ्यासं कुर्वन्ति. अत्र वाक्यं द्विवचने दत्तमस्ति, अतः एव क्रियापदं किं दत्तं? कुरुतः.
कुरुतः.
अत्र प्रश्नवाचकवाक्यं किम्?
सुनीता रघुवीरः च योगासनं किमर्थं कुरुतः?
उत्तमम्.
रघुवीरः चिकित्सालयतः आगच्छति. रघुवीरः कुतः आगच्छति?
उत्तमं महोदय, तावदेव. धन्यवादः. अनन्तरम् अधुना अत्र कादम्बरी भगिनी, भवती अधुना दृष्टवती वा अत्र?
आं भगिनि.
उत्तमम्. अत्र अवधेयम् इति दत्तमस्ति, पठितुं शक्नोति वा?
अस्तु. अतो लिखितेषु वाक्येषु वर्णरञ्जितपदानाम् आधारेण प्रश्ननिर्माणं कुर्वन्तु.
भगिनी, तस्मात् पूर्वम् एकः परिच्छेदः अस्ति, अपि च तत्र एकः परिच्छेदः अपि च प्रश्नाः अपि सन्ति. भवती दृष्टवती वा अत्र अवधेयं? तत् पठतु.
किं, कुत्र, कति, कदा, कुतः, कथं, किमर्थम् इति एते प्रश्नवाचकाः शब्दाः सन्ति.
भवती जानाति वा अत्र स्थगयति. एकम् वाक्यं स्वीकृत्य वयं पुनः एकवारं चिन्तयित्वा अवगच्छामः. भवती जानाति एव किं, कुत्र, कति, कदा, कुतः, कथं, किमर्थम् एते प्रश्नवाचकशब्दाः. द्वितीयं वाक्यम्.
एतेषां शब्दानां प्रथमम् अक्षरं क इति अस्ति.
इत्युक्ते एतेषां शब्दानां प्रथमम् अक्षरं किम्?
क.
वयं जानीमः एव तदर्थमेव. तृतीयं वाक्यम्.
अतः एते सप्तप्रश्नवाचकाः शब्दाः प्रकाराः इति प्रसिद्धम्.
तदर्थमेव. इत्युक्ते एतेषां शब्दानां प्रथमम् अक्षरं ककारः इति कृत्वा अत्र एतान् पदान् प्रश्नवाचकशब्दाः अथवा सप्तककाराः इति वदामः. अनन्तरम्.
अतः सप्तककारान् उपयुज्य एकं दीर्घं वाक्यं रचितम् अस्ति.
इत्युक्ते अत्र परिच्छेदः तस्य अधोभागे अत्र एकं दीर्घं वाक्यं लिखितमस्ति. वाक्यं किम् इत्युक्ते अनन्तरं पठामः. पठतु अत्र.
वाक्यस्य खण्डाः कृताः सन्ति.
इत्युक्ते अस्मिन् वाक्ये वाक्यस्य खण्डाः कृताः इत्युक्ते किं? वाक्यस्य खण्डाः कृताः. द सेण्टेन्स् इस् मेड् इन् टु पीसेस्. किमर्थम् अत्र आकाङ्क्षापद्धत्या वयम् अत्र ज्ञास्यामः, विषयं ज्ञास्यामः. आकाङ्क्षापद्धतिः इत्युक्ते अत्र आकाङ्क्षा इत्युक्ते वि रिक्वैर् ए न्यू वर्ड् टु कम्प्लीट् द होल् सेन्स्. अत्र आकाङ्क्षापद्धतिः, अत्र आकाङ्क्षापद्धत्या, पद्धत्या इति पदं तृतीयाविभक्तौ अस्ति. तत्र प्रथमाविभक्तिरूपं किं? पद्धतिः. पद्धतिः पद्धत्या, परन्तु पद्धत्याः नाम किम्? आकाङ्क्षापद्धतिः. अनन्तरं पठतु.
एवं यत्किमपि क्रियापदं स्वीकृत्य उचितान् प्रश्नान् उपयुज्य दीर्घवाक्यानि रचयितुं शक्यते.
इत्युक्ते एवं रीत्या अत्र एकमेव क्रियापदं स्वीकृत्य परन्तु अन्यानि पदानि योजयित्वा उचितान् प्रश्नान् उपयुज्य दीर्घवाक्यानि रचयितुं शक्नुमः. एतादृशरीत्या इत्युक्ते इदानीं पर्यन्तं वयं न पठितवन्तः तत्र वाक्यं किम् इति. भवती एव पठतु अत्र दीर्घं वाक्यं किं दत्तम्.
काश्याः राजा शतं शतं वस्त्राणि सुवर्णपेटिकातः मन्दिरे सायङ्काले दक्षिणहस्तेन पुण्यार्थं ददाति.
पश्यति वा भगिनी अत्र कियत् दीर्घमस्ति वाक्यम्. एकमेव वाक्यं. काश्याः राजा शतं वस्त्राणि सुवर्णपेटिकातः मन्दिरे सायङ्काले दक्षिणहस्तेन पुण्यार्थं ददाति. अस्मिन् वाक्ये क्रियापदं किम्?
ददाति.
उत्तमं. ददाति इति क्रियापदं स्वीकृत्य अन्यानि पदानि योजयित्वा दीर्घं बृहत् वाक्यं लिखितमस्ति. परन्तु अत्र सप्तककारान् योजयित्वा अत्र तेषाम् उत्तराणि पदानि योजयित्वा अत्र वाक्यं लिखितमस्ति. भवती एव पठतु अत्र प्रश्नं पठित्वा उत्तरमपि वदतु.
अस्तु. कः ददाति? काश्याः राजा ददाति.
अत्र पश्यतु भगिनी, काश्याः राजा ददाति इति पदम् इति अस्ति. अत्र काश्याः राजा, अत्र विभक्तिः का? ऊहां करोतु.
प्रथमाविभक्ति.
अत्र काश्याः राजा, अत्र प्रथमाविभक्ति अन्तरो चिन्तयतु.
षष्ठीविभक्ति.
उत्तमम्, उत्तमम्. काश्याः राजा षष्ठीविभक्ति एकवचनं, परन्तु प्रथमाविभक्ति अन्तरूपं किं भवति? काशी. काश्याः राजा, काश्याः राजा इति षष्ठीविभक्ति अन्त, काश्याः षष्ठीविभक्ति अन्तरूपं. कः ददाति? काश्याः राजा. द्वितीयं
किं ददाति? वस्त्राणि ददाति.
अग्रिमं.
कति वस्त्राणि ददाति? शतं वस्त्राणि ददाति. कुत्र ददाति? मन्दिरे ददाति.
अत्र पश्यन्तु सर्वे, अत्र पश्यन्तु भगिनि, अत्र साधारणतया शतम् इति पदं सर्वदा शतम् इति एव वक्तव्यं. वयं सङ्ख्याः पठितवन्तः, सङ्ख्यानां विषये किञ्चित् वयं ज्ञातवन्तः, परन्तु अत्र शतम् इति पदं सर्वदा नपुंसकलिङ्गे एव भवति, शतं वस्त्राणि इति एव भवति, अत्र स्मर्तव्यम्, एतत् विषयं स्मर्तव्यं. यु नीड् टु रिमेम्बर् दिस् पायिण्ट्. मुख्यबिन्दुः तदेव. अनन्तरं
कुत्र ददाति? मन्दिरे ददाति. कदा ददाति? सायङ्काले ददाति.
वयं पूर्वमेव पठितवन्तः भगिनि, अत्र पूर्वमेव वयं पठितवन्तः यदा कदापि कुत्र इति प्रश्नं पृच्छामश्चेत् साधारणतया तस्य उत्तरं सप्तमी विभक्तौ भवति. पुस्तकं कुत्र अस्ति वदतु.
पुस्तकं मन्दिरे अस्ति.
उत्तमं. भवती कुत्र अस्ति अधुना?
अहं गृहे अस्मि.
उत्तमं, तावदेव. अहं गृहे अस्मि इत्युक्ते सप्तमी विभक्तौ कुत्र इति वदामश्चेत्. भवती कदा पाठशालां गच्छति?
अहं नववादने पाठशालायां गच्छामि.
पाठशालां गच्छामि. पाठशाला अत्र कदा इति वदामश्चेत् तत्रापि सप्तमी विभक्तेः उपयोगमेव कुर्मः. तदर्थमेव अत्र मन्दिरे सायङ्काले इति पदद्वयं सप्तमी विभक्तौ अस्ति. अनन्तरं
कुतः ददाति? सुवर्णपेटिकातः ददाति.
कुतः ददाति? सुवर्णपेटिकातः. विभक्तिः का भगिनि, ऊहं करोतु.
पञ्चमीविभक्ति.
सुन्दरं, सम्यक् जानाति भवती. अनन्तरं
कथं ददाति? दक्षिणहस्ते दक्षिणहस्तेन ददाति.
दक्षिणहस्तेन ददाति. अत्र दक्षिणहस्तेन इति तृतीया विभक्त्यन्तं, परन्तु न पठितवन्तः वयम् इदानीं पर्यन्तम्. अग्रे गत्वा वयं तृतीयविभक्तेः विषयं पठिष्यामः. अनन्तरं
किमर्थं ददाति? पुण्यार्थं ददाति.
कियत् सुन्दरमस्ति वाक्यं पश्यतु भगिनि. अत्र बहु दीर्घं वाक्यं, परन्तु अत्र बहून् विषयान् ज्ञास्यामः. वयं काश्याः राजा शतं वस्त्राणि सुवर्णपेटिकातः मन्दिरे सायङ्काले दक्षिणहस्तेन पुण्यार्थं ददाति. सुन्दरमस्ति वा न वा वाक्यम्?
आम्.
उत्तमम्, उत्तमं भगिनि. अनन्तरम् अग्रिमम् अपि भवती एव पठतु अधोलिखितेषु वाक्येषु.
अस्तु. अधोलिखितेषु वाक्येषु वर्णरञ्जितपदानाम् आधारेण प्रश्ननिर्माणं कुर्वन्तु.
इत्युक्ते अत्र अधोलिखितेषु वाक्येषु तत्र विभक्तिः का भगिनि, चिन्तयतु.
सप्तमविभक्ति.
उत्तमं, वचनं किम्? उत्तमम्. अधोलिखितेषु वाक्येषु वर्णरञ्जितपदानाम्, अत्र वर्णरञ्जित इति पदमस्ति, अत्र रञ्जित इत्युक्ते कलर्ड् आर् पेण्टेड् इन् रेड्, वर्णरञ्जित. अत्र एकं क्रियापदमस्ति रञ्जयति अथवा रञ्जयते, तत्र क्रियापदमस्ति रञ्जयति इति पदात् क्रियापदात् अत्र वर्णरञ्जित इति पदम् आगतं. पदानाम् आधारेण प्रश्ननिर्माणं कुर्वन्तु. एकवारं वदतु भगिनि तदपि.
अस्माकं देशे पञ्चवायवः सन्ति.
अवगतवती वा वाक्यं किम्?
न.
धन्यवादः भगिनि. भवती शृणोतु, अत्र कः करोति अधुना? उमाशङ्करमहोदय, भवान् करोतु अत्र अभ्यासम्.
अस्माकं देशे पञ्चवायव सन्ति अस्माकं देशे.
महोदय, वाक्यम् अवगतवान् वा अत्र?
न भगिनि.
अत्र पुनः एतदेव वाक्यम् अहं वदामि. अस्माकं देहे पञ्चवायवः सन्ति. इदानीम् अवगतं वा?
ओ, इन्नवर् देहं फैव्. ओके ओके, ऐ अण्डर्स्टाण्ड् दट् वन्.
अत्र महोदय, अत्र अस्माकं देहे,
अस्माकं देहे कति वायवः सन्ति?
अत्र पश्यतु महोदय, अत्र अस्माकं कार्यमस्ति व्याकरणं पठनीयं. केवलम् अत्र वाक्यम् अवगन्तव्यम्, अपि च तत्र बिन्दवः कः, मुख्यबिन्दवः कः इत्यपि अवगन्तव्यं. वि नीड् टु नो द वर्ड् एण्ड् आल्सो वि नीड् टु नो द मीनिङ्ग् इन् वाट् काण्टेक्स्ट् दे वर् यूस्ड् अण्ड् वाट् डु दे मीन्. वि नीड् टु नो आल् दीस् थिङ्ग्स्. भवानेव वदतु महोदय, अत्र वायवः इति पदमस्ति, अत्र वायुः उकारान्तपदं, यथा गुरुः, गुरुः, गुरुः इति पदम् उकारान्तपदं, पुंलिङ्गपदं. परन्तु गुरुः शब्दस्य बहुवचनरूपं किं भवति, कोऽपि जानाति वा? गुरवः. उत्तमं, तदर्थमेव अत्र वायवः इति दत्तमस्ति. एकवचनं किं भवति? वायुः. वायुः प्रथमाविभक्ति एकवचनं, बहुवचनं वायवः. प्रथमाविभक्ति, प्रथमाविभक्ति बहुवचनं. अत्र वाक्यं किम्? अस्माकं देहे पञ्चवायवः सन्ति. उमाशङ्कर् महोदय वदतु.
अस्माकं देहे कति वायवः सन्ति?
अत्र यदि भवन्तः ज्ञातुमिच्छन्ति चेत् अहं वदामि तेषां नाम किम्. तेषां नामानि प्राण, अपान, व्यान, उदान, समान. पञ्चवायवः के? प्राणवायुः, अपानवायुः, उदानवायुः, समानवायुः, व्यान. अस्माकं देहे पञ्चवायवः सन्ति. अनन्तरं द्वितीयं वाक्यं महोदय.
नागेशः पञ्चवादने उत्तिष्ठति. नागेशः कदा उत्तिष्ठति?
उत्तमम्.
योगः नाम चित्तवृत्तिनिरोधक. योगः नाम चित्तवृत्तिनिरोधक.
प्रश्नवाचकवाक्यं वदतु महोदय.
योगः नाम किम्?
उत्तमं. प्रश्नवाचकवाक्यं योगः नाम किम्? अत्र सर्वे पश्यन्तु, उत्तमं वाक्यं दत्तमस्ति. योगः नाम किम्? वाट् डु यु मीन् बै योग? नाम अहं सर्वदा कक्षायां किं वदामि, इत्युक्ते किम्, इत्युक्ते किम् इति वदामि. परन्तु अत्र नाम इत्युक्ते, इवन् इफ् ऐ से नाम, दट् मीन्स् इत्युक्ते, दट्स् वाट् इट् मीन्स्. योगः नाम किम्? वयं सर्वे जानीमः एव, सर्वे जनाः योगा कुर्वन्ति. परन्तु अस्माभिः अवगन्तव्यं योग इत्युक्ते किम्. अत्र निर्वचनं दत्तमस्ति, योगः इत्युक्ते किम्. डेफिनिशन् वास् गिवेन् हियर्. योगः इत्युक्ते चित्तवृत्तिनिरोधः. कः वदति? आङ्ग्लभाषायां वदतु महोदय. चित्तवृत्तिनिरोधः एव योगः. तथा पतञ्जलिमहर्षिणा उक्तं, योगः किम् इत्युक्ते, योगः चित्तवृत्तिनिरोधः. तदेव प्रथमं सूत्रम् अष्टाङ्गयोगम्. अष्टाङ्गयोगं वयं जानीमः एव, तत्र प्रथमं सूत्रं दत्तमस्ति. योगः इत्युक्ते किं? योगः नाम चित्तवृत्तिनिरोधः. अनन्तरम्
अस्ते पञ्च अङ्गुल्यः सन्ति. अस्ति कति अङ्गुल्यः सन्ति
सम्यक्
अष्ट अष्टाङ्गयोगकेन्द्रं मैसूरुनगरे अस्ति अष्टाङ्गयोगकेन्द्रं कुत्र अस्ति
सम्यक्
वायुः नासिकातः प्रविशति
प्रवहति अत्र पश्यन्तु प्रवहति अत्र इतोपि किञ्चित् वदामि प्र संस्कृतभाषायां द्वाविंशतिः उपसर्गाः सन्ति उपसर्गाः सन्ति अत्र प्र इति एकः उपसर्गः वह् धातुः प्र उपसर्गपूर्वकः वह् धातुः तदर्थमेव अत्र क्रियापदं प्रवहति वायुः कुतः प्रवहति वदतु महोदय
वायुः नासिकातः प्रवहति
सर्वे अवगतवन्तः वा वाक्यानि सुलभानि एव डिड् आल् आफ् यू अण्डर्स्टुड् द मीनिङ्ग् आफ् दीस् सेण्टेन्सेस्
आं भगिनि
उत्तमं महोदय उमाशङ्कर महोदय वायुः वायुः नासिकातः प्रवहति
प्रवहति
प्रवहति न न क्षम्यतां महोदय क्षम्यताम् अत्र वाक्यं क्रियापदमस्ति प्रविशति सम्यक् न दृष्टवती क्षम्यताम् अत्र प्रविशति इति दत्तमस्ति प्र उपसर्गपूर्वकः विष् धातुः क्षम्यतां प्रविशति
जयपुरनगरं सुन्दरम् अस्ति जयपुरनगरं कथमस्ति
सम्यक्
राष्ट्रभक्ति अस्माकं रक्ते अस्ति
राष्ट्रभक्तिः
राष्ट्रभक्तिः अस्माकं रक्ते अस्ति राष्ट्रभक्ति कुतः अस्ति
कुत्र अस्ति अत्र वयं जानीमः राष्ट्र अस्माकं रक्ते राष्ट्रभक्तिः अस्ति राष्ट्रभक्तिः कुत्र अस्ति
अस्माकं रक्ते रक्ते अस्ति
उत्तमं
योगे जनानां श्रद्धा अस्ति
श्रद्धा
अस्ति योगे जनानां श्रद्धे अस्ति
अत्र पश्यन्तु जनानां श्रद्धा जनानां श्रद्धा कुत्र अस्ति
जनानां
योगे अस्ति इत्युक्ते अत्र योगे इति पदं सप्तमी विभक्तौ अस्ति जनानां श्रद्धा योगे अस्ति सप्तमी विभक्तिः साधारणतया किं वदामः अधिकरणसप्तमी इति वदामः यदि वयं सप्तमी विभक्तेः विषयं ज्ञास्यामः तदा पुनः एकवारं वदामि तदापि परन्तु अत्र विषयरूप आधारः योगे जनानां श्रद्धा अस्ति इत्यस्मिन् वाक्ये योगे इति पदं सप्तमी विभक्तौ अस्ति परन्तु तत्र विषयरूप आधारः इति वदामः आधारसप्तमी विषयरूप आधारसप्तमी इति वदामः तदर्थमेव अत्र योगः इति पदस्य सप्तमी रूपं दत्तमस्ति अनन्तरं
हिमालयतः गङ्गा प्रवहति कुतः गङ्गा प्रवहति
कुतः गङ्गा प्रवहति उत्तमं
जनाः स्वास्थ्यसंरक्षणाय योगाभ्यासं कुर्वन्ति जनाः किमर्थं योगाभ्यासं करोति
कुर्वन्ति
कुर्वन्ति ओके
किमर्थम् अत्र कर्तृपदं किं महोदय अस्मिन् वाक्ये कर्तृपदं किं
कर्तृपदं
कर्ता कर्ता कः जनाः
जनाः ओके जनाः ओके
जनाः इति कर्तृपदम् अस्माकं कर्तव्यं किम् अधुना वयं कर्तरीप्रयोगे इत्युक्ते आक्टिव् वाय्स् कर्तरीप्रयोगे वाक्यरचनां कुर्मः वाक्यानि पठामः अत्र जनाः कुर्वन्ति जनाः किं कुर्वन्ति जनाः योगाभ्यासं कुर्वन्ति तदर्थम् इत्युक्ते अत्र कर्तृपदम् आधारीकृत्य क्रियापदं सम्भवति यदि जनः इति अस्ति चेत् वाक्यं किं भवति
जनः योगासनं करोति जनाः योगासनं कुर्वन्ति
तावदेव अनन्तरं
चेन्नै नगरे कृष्णा मत्स्याय योग मन्दिरम् अस्ति कृष्णामाचार्य योगा कुत्र अस्ति
कृष्णमाचार्ययोगमन्दिरम्
कुत्र अस्ति
अत्र योगमन्दिरस्य नाम अस्ति कृष्णमाचार्ययोगमन्दिरम् कृष्णमाचार्ययोगमन्दिरम् चेन्नैनगरे अस्ति अत्र धन्यवादः महोदय अनन्तरम् अधुना अग्रिमम् अभ्यासं कुर्मः अधुना अत्र शङ्करन् महोदय भवान् करोति वा अत्र सप्तभिः ककारैः आसनप्रश्नोत्तरी
हलो
वदतु महोदय पठतु
सप्तमी ककारैः आसनः प्रश्नोत्तरी
सप्तभिः अत्र पश्यन्तु सप्तभिः ककारैः
क्षम्यतां भगिनि सप्तभिः ककारैः
अत्र सप्तभिः विभक्तिः का वचनं किं लिङ्गं किं वदतु महोदय
सप्तभिः ककारैः आसनः आसनप्रश्नोत्तरी प्रश्नः एतस्य आसनस्य न
महोदय अत्र अहं किं दृष्टवती इत्युक्ते सप्तभिः ककारैः तत्र विभक्तिः का वचनं किं लिङ्गं किं चिन्तयतु
सप्तभिः बहुवचनम् ककारैः बहुवचनम् आसनः
अत्र ककारैः न अत्र भवान् यदुक्तवान् तत् सम्यक् एव अत्र सप्तभिः तृतीयविभक्ति बहुवचनम्
तृतीयविभक्ति बहुवचनं
किमर्थं चेत् अत्र ककारः ककारः इति पदं पुंलिङ्गपदं ककारैः तृतीयाविभक्ति बहुवचनं पुंलिङ्गम् अत्र सप्तभिः इति ककारैः इति पदस्य विशेषणं भवति अधुना पठतु महोदय प्रश्नम् उत्तरं च
प्रश्नः एतस्य आसनस्य नाम किम् षष्टिविभक्ति
महोदय सम्यक् न श्रूयते
तस्य आसनस्य नाम किं प्रश्नः एतस्य आसनस्य नाम किम् एतस्य आसनस्य षष्टिविभक्ति
अत्र प्रश्नं पठतु, उत्तरम् अपि पठतु महोदय अत्र.
उत्तरं वीरभद्रासनं. प्रश्नः, अस्य आसनस्य समये दृष्टिः कुत्र स्थापनीया? उत्तरम् अग्रे. प्रश्नः, एतस्य आसनस्य अन्तिमस्थितौ कति स्नासा स्वीकरणीयाः?
महोदय महोदय सम्यक् न श्रूयते, क्षम्यताम्. पुनः एकवारं पृच्छामि. अत्र समीर महोदय भवान् पठतु, सम्यक् न श्रूयते. समीर महोदय.
हलो भगिनी, ऐ एम् नाट् इन् अ पोजिशन् टु proceed forward with the lessons. I'm just listening in.
Asta asta. Adhuna okay. Atra kaha pathati atra Suchitra bhagini bhavati pathitum icchati va atra vakya
bhagini, but what should I read? I just joined, sorry.
Adhuna Raju,
my call was dropped as well. My call was dropped, so just came back. Which line?
अत्र महोदय, अत्र एतस्य आसनस्य नाम किम् इति अत्र प्रश्नः अस्ति, तदारभ्य पठतु.
अस्य आसनस्य समये दृष्टिः कुत्र स्थापनीयः? उत्तरं, साक्षात् अग्रे. प्रश्नः, एतस्य आसनस्य अन्तिमस्थितौ कति श्वासः स्वीकरणीयाः? उत्तरम्, आरम्भे चतुर्वारं श्वासोच्छ्वासः पर्याप्तः. प्रश्नम्, एतस्मिन् आसने कदा उच्छ्वासः करणीयः?
अत्र एकवारं महोदय, इदानीं पर्यन्तं भवान् अत्र पठितवान्, अत्र एकवारं पश्यामः अत्र किं दत्तमस्ति इति एकवारं चिन्तनं कुर्मः. सर्वे अत्र करपत्रं पश्यन्ति चेत् अत्र त्रीणि चित्राणि सन्ति. अत्र त्रीणि चित्राणि कानि इत्युक्ते, एकम् आसनं दत्तमस्ति अत्र, अत्र तस्य नाम अस्ति, एतस्य आसनस्य नाम किम् इति प्रथमः प्रश्नः. एतस्य आसनस्य नाम किं महोदय? वीरभद्रासनं. भवान् जानाति वा एतत् आसनं?
I know the asana, but I didn't know that this is the name.
Astu, astu. Asya asanasya nama Veerabhadrasanam.
Veerabhadrasanam.
Anantram. Yadi asanam kurmaha chet, asya asanasya samaye drushtihi kutra sthapaniya. Drushtihi kutra sthapaniya. Iti prashnaha. Atra sarve pashintu. आसनस्य समये यदि वयम् आसनं कुर्मः तदा अस्माकं दृष्टिः कुत्र स्थापनीया? दृष्टिः इति पदं स्त्रीलिङ्गपदम्. स्त्रीलिङ्गपदं तदर्थमेव अत्र दृष्टिः स्थापनीया इति दत्तमस्ति. यदि यदि पदं पुंलिङ्गे अस्ति चेत् स्थापनीयः भवति, यदि पदं नपुंसकलिङ्गे भवति चेत् स्थापनीयं तथा भवति. परन्तु अत्र दृष्टिः इति पदं स्त्रीलिङ्गपदम् इति कृत्वा अस्माकं दृष्टिः कुत्र स्थापनीया वदतु महोदय, उत्तरं किम्?
दृष्टिः साक्षात् अग्रे स्थापनीयः.
साक्षात् अग्रे स्थापनीया. साक्षात् अग्रे इत्युक्ते उपरि.
यस्, Sakshat Agre means in front, right?
इत्युक्ते इन् फ्रण्ट् उत्तमम् इत्युक्ते अत्र सर्वे आसनं अत्र चित्रं दत्तमस्ति, चित्रं सम्यक् नास्ति परन्तु सर्वे पश्यन्तु अत्र सम्यक् तत्र केवलं रेखया दत्तमस्ति, सर्वे चित्रं पश्यन्तु तदा एव वयम् अवगन्तुं शक्नुमः. दृष्टिः कुत्र स्थापनीया वदतु.
दृष्टिः साक्षात् अग्रे स्थापनीयः.
उत्तमं, स्थापनीया किमर्थं चेत् तत्र दृष्टिः इति पदस्य विशेषणमेव स्थापनीया. अनन्तरम् एतस्य आसनस्य अन्तिमस्थितौ कति श्वासाः स्वीकरणीयाः. अन्तिमस्थितिः, अन्तिमस्थितिः इत्युक्ते
लास्ट् एज्
उत्तमं. स्थितिः, अन्तिमस्थितिः, स्थितिः इति पदम् इकारान्तपदं, तस्य सप्तमी विभक्तिरूपं स्थितौ, अन्तिमस्थितौ, आसनस्य अन्तिमस्थितौ कति श्वासाः स्वीकरणीयाः वदतु.
एतस् आसनस्य अन्तिम स्थितौ चतुर्वारे श्वासोच्छ्वासः चतुर्वार श्वासः स्वीकरणीयाः.
तावदेव इत्युक्ते अत्र चतुर्वारम् एकवारं वयं जानीमः, एकवारम् इट् मीन्स् वन्स्, द्विवारं, त्रिवारम्, अत्र चतुर्वारम्. अत्र वारम् इत्युक्ते वीक् इति अर्थः न, अत्र वारम् इत्युक्ते वदतु महोदय, एकवारं न वारम् टैम्स् उत्तमम्. अत्र चतुर्वारम् इत्युक्ते
फोर् टैम्स्
श्वासोच्छ्वासः पर्याप्तः. एतस्मिन् आसने कदा उच्छ्वासः करणीयः वदतु.
चतुर्वारं
अग्रिमं वाक्यं महोदय.
एतस्मिन् आसने कदा उच्छ्वासः करणीयः. यदा भवान् पुरतः विद्यमानं जानु वक्रं कुर्वन् हस्तः उपरि नयति तदा उच्छ्वासः करणीयः.
इत्युक्ते अत्र भवान् जानाति वा उच्छ्वासः, निःश्वासः, उच्छ्वासः इत्युक्ते इन्हेल् उच्छ्वासः. एतस्मिन् आसने कदा उच्छ्वासः करणीयः, अत्र उत्तरं दत्तमस्ति. यदि भवान् आसनं कर्तुम् इच्छति चेत् तदा भवान् पुरतः विद्यमानं जानु इत्युक्ते अत्र पुरतः विद्यमानं जानु इत्युक्ते किं महोदय. कोऽपि जानाति वा अत्र जानु इत्युक्ते. नि इत्युक्ते अत्र मिडिल् पार्ट् आफ् द लेग्. पुरतः विद्यमानं जानुं वक्रं कुर्वन् हस्तौ उपरि नयति. अत्र सर्वे चित्रं पश्यन्तु, अत्र चित्रं तृतीयं चित्रं हस्तौ उपरि नयति. अत्र पश्यन्तु हस्तौ उपरि नयति, अत्र हस्तौ इति पदं द्विवचने अस्ति, किमर्थम् द्विवचने किमर्थं हस्तः हस्तौ
हस्तौ
हस्ताः हस्ताः किमर्थम्. अस्माकं हस्तद्वयमस्ति अतः एव अत्र हस्तौ इति पदं द्विवचने द्वितीय विभक्तौ अस्ति. हस्तौ उपरि नयति, उपरि नयति कदा पुरतः विद्यमानं जानुं वक्रं कुर्वन्. यु हाव् टु बेण्ड् युवर् नी फ्रण्ट् वर्ड् अनन्तरं
देन् इन्हेल् तदा
उच्छ्वासः करणीयः. अग्रिमम्
कुतः एकः पादः पूर्वतः प्रसारणीयः.
कुतः एकः पादः पुरतः प्रसारणीयः इत्युक्ते कस्यां स्थित्यां कुतः कुतः इत्युक्ते अत्र एकः पादः पुरतः प्रसारणीयः. यु नीड् टु पुट् युवर् लेग् फार्वर्ड् फ्रम् वाट् स्टेट्
वन् लेग् फार्वर्ड्
वन् लेग् फार्वर्ड् कदा कुतः दत्तमस्ति वदतु.
स्मस्थितिः समस्थितिः एकः पादः पूर्तः प्रसारणीयः
समस्थितितः. वयं जानीमः एव पञ्चमी विभक्तेः विषये. भवान् कुतः आगतवान्? अहं गृहतः आगतवती. भवान् कुतः आगतवान् इति प्रश्नं पृच्छामि चेत् भवान् कुतः आगतवान् महोदय? कुतः कार्यालयं गच्छति वदतु.
गृहम् आगतवान्.
भवान् कुतः कार्यालयं गच्छति?
अहं न्यूयार्क् नगरे कार्यालयं गच्छामि.
कुतः अहं पृष्टवती कुतः
कुतः फ्रम् गृहे
गृहतः
गृहतः कार्यालयं गच्छामि.
तावदेव तदेव अत्र दत्तमस्ति समस्थितितः
कार्यालयं.
अत्र समस्थितिः इति पदमस्ति. स्थितिः इति पदम् इकारान्तपदं स्त्रीलिङ्गपदं. समस्थितिः समस्थितितः एकः पादः पुरतः प्रसारणीयः. तदनन्तरं किं कर्तव्यं वदतु.
लक्ष्मी भगिनी, वाट् इस् द मीनिङ्ग् आफ् समस्थितिः? समस्थितिः
समस्थितिः इत्युक्ते अत्र लैक् अटेन्शन् पोसिशन् अटेन्शन् पोसिशन् अत्र चित्रं पश्यतु महोदय. प्रथमं चित्रम् अत्र अटेन्शन् पोसिशन् अस्ति. तदनन्तरम् एकः पादः पुरतः प्रसारणीयः. वयं जानीमः पुरतः पृष्ठतः वामतः दक्षिणतः वयं पठितवन्तः. प्रथमतया किं कर्तव्यम्? एकः पादः पुरतः स्थापनीयः. कुतः? समस्थितितः. वदतु.
इदानीं पृष्ठतः विद्यमानस्य पादस्य जानु कथं भवेत्?
कथं भवेत्? अत्र पश्यतु महोदय, पुरतः प्रथमतया किं कर्तव्यं? समस्थितितः एकः पादः पुरतः प्रसारणीयः. तदनन्तरं पृष्ठतः विद्यमानस्य पादस्य जानु. जानु इत्युक्ते अत्र नि के एन् इ नि इति वदामः. इत्युक्ते पृष्ठतः विद्यमानस्य पादस्य जानुः जानु कथं भवेत्? जानु इति पदं नपुंसकलिङ्गपदं. जानु जानुनि जानूनि तथा भवन्ति रूपाणि तत्र. पृष्ठतः विद्यमानस्य पादस्य जानुः कथं भवेत् वदतु. अग्रिम उत्तरं
तत्र ऋजु भवेत्.
ऋजु भवेत्? ऋजु इत्युक्ते
कथं?
ऋजु इत्युक्ते स्ट्रैट्
स्ट्रैट्
स्ट्रैट् भवेत्. अनन्तरं
वक्रं न करणीयम्.
यु शुड् नाट् बेण्ड् युवर् बेक् लेग्
बेक्
इत्युक्ते अत्र पृष्ठतः विद्यमानस्य पादस्य जानुः ऋजु भवेत्. इट् शुड् बि स्ट्रैट्. अपि च वक्रं न करणीयं. कथं भवेत् कथम् इत्युक्ते अत्र कथं भवेत् इत्यस्य उत्तरं दत्तम् अस्मिन् वाक्ये. अनन्तरम्
एतत् आसनं किमर्थं करणीयम्?
किमर्थं करणीयम्?
अस्य आसनस्य अनेकानि प्रयोजनानि.
कानि कानि?
ऐ थिङ्क् विस्तरार्थं
अत्रैव दत्तमस्ति. पठतु.
अस्य आसनस्य अनेकानि प्रयोजनानि. देर् आर् मेनि
एड्वाञ्टेजेस्
आफ् डूयिङ्ग् दिस्. मेन्लि प्रधानायेन वक्षः स्थलस्य विस्तारणार्थं मेन्लि टु ब्रोडन् योर् चेस्ट्.
उत्तमम्. अत्र पश्यतु महोदय, अत्र पश्यतु, अत्र किं दत्तमस्ति? अस्य आसनस्य अनेकानि प्रयोजनानि, प्राधान्येन वक्षस्थलस्य विस्तारणार्थं. वयं जानीमः किमर्थं. भवान् किमर्थं संस्कृतं पठति? वदतु महोदय, भवान् किमर्थं संस्कृतं पठति?
ज्ञानार्थं संस्कृतं पठामि.
उत्तमं. तावदेव. अत्र किमर्थम् एतत् आसनं करणीयम्?
प्रधानायेन वक्षस्थलस्य विस्तारणार्थं.
विस्तारणार्थं.
विस्तारणार्थम्.
अपि च इतोपि प्रयोजनानि सन्ति. अग्रिमं.
ततः च श्वासप्रवास क्रियायाम् अवरोध निवारणार्थं वीरभद्रासनं सहकरोति.
किमर्थं सहकरोति वीरभद्रासनं?
श्वासप्रवासक्रियायाम् अवरोधनिवारणार्थं वीरभद्रासनं सहकरोति.
अवरोधनिवारणार्थम् इत्युक्ते अत्र अत्र प्रयोजनं किम् इत्युक्ते श्वासप्रश्वासक्रियायाम् अवरोधनिवारणार्थम्. आङ्ग्लभाषायां वदतु.
टु मेक् योर् ब्रीदिङ्ग् विद् नौ I would say
obstruction.
Have your breathing better, yeah.
Uttamam.
Remove
obstructions, yeah. Tavadeva. To eliminate breathing problems. Ichukte yadi vayam virabhadrasanam kurmaha chet atra anekani prayojanani dattani akshastalasya vistaranartham apicha shwasakriyayam avarodha nivaranartham etadasanam kurmaha. Uttamam mahodaya, dhanyavadaha. शङ्करन् महोदय, भवान् पठतु. अत्र ज्ञानवर्धिनी इति दत्तमस्ति, भवान् पठतु शङ्करन् महोदय, एकवारं प्रयत्नं करोतु.
ज्ञानवर्धिनी
पठतु.
ज्ञानवर्धिनी योगक्षेमं वहाम्यहं. ये साधकाः नित्यम् ईश्वरेण युक्ताः सन्ति तान् सः ईश्वरः उद्धरति एव. न केवलम् उद्धरणम् अपि तु लौकिकविषयेषु तेषाम् आवश्यकताः अपि सः पूरयति इति. भगवान् श्रीकृष्णः अर्जुनं बोधयन् योगक्षेमं वहाम्यहम् इति कथयति. योगो नाम अप्राप्यस्य प्राप्तिः, क्षेमं नाम प्राप्तस्य रक्षणम् इति. जीवेन योगः प्राप्ति, क्षेमं तस्य रक्षणं च अत्यन्तम् उपेक्षितम् एव. अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपास्यते तेषाम् इत्याभियुक्तानां योगक्षेमं वहाम्यहं श्रीमद्भगवद्गीता
नवमाध्यायः नवमोऽध्यायः अनन्तरम् अत्र अत्र किं कुर्मः इत्युक्ते एकवारम् अहं किञ्चित् वदामि. अत्र ज्ञानवर्धिनी इति दत्तमस्ति, योगक्षेमं वहाम्यहम् अत्र एकः श्लोकः अस्ति, भगवद्गीतायाः श्लोकः. अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्. अत्र महोदयः पठितवान्, अत्र एकमेकं वाक्यं स्वीकृत्य अधुना पश्येम. ये साधकाः नित्यम् ईश्वरेण युक्ताः सन्ति तान् सः ईश्वरः उद्धरति एव. महोदय वदतु, तस्य अर्थः कः?
ये साधकाः नित्यम् ईश्वरेण युक्ताः सन्ति तान् सः ईश्वरः उद्धरति एव. श्री भगवान् कृष्णस्य वचनं साधकाः अनुदिनम् ईश्वरेण युक्ताः सन्ति तान् सः ईश्वरः ही ओन्लि सेव्स् उद्धरति. इट् मीन्स् सः ईश्वरः उद्धरति एव. हि एलोन्
ईश्वर अत्र किमित्युक्ते ये ये जनाः नित्यम् ईश्वरेण सहित युक्ताः तान् सर्वान् ईश्वरः उद्धरति, तेषाम् उद्धरणं करोति. केवलम् उद्धरणम् अपि तु सः उद्धरणमित्युक्ते अत्र न केवलम् उद्धरणम् अपि तु लौकिकविषयेषु तेषाम् आवश्यकताः सन्ति चेत् ताः अपि पूरयति. यदि भवान् किमपि इच्छति चेत् सर्वेषां तत्र साधकानाम् आवश्यकताः पूरयति. कः पूरयति?
केवलं न केवलम् उदाहरणम् अपि तु लौकिकव्यवहारविषयेषु आवश्यकता लौकिकविषयेषु
अपि आवश्यकताः अस्ति चेत् आवश्यकताः पूरयति. कः पूरयति?
पूरयति लौकिकविषयेषु तेषां.
कः पूरयति? ईश्वरः.
ईश्वरः
ईश्वरः पूरयति. अग्रिमं वाक्यं,
भगवान् श्रीकृष्णः अर्जुनं योगक्षेमं वहाम्यहम्.
उत्तमम्. अत्र पश्यन्तु, सर्वे पश्यन्तु, योगक्षेमं वहाम्यहम् इति वाक्यमस्ति. वहामि प्लस् अहम् अत्र अत्र यण् सन्धिः अस्ति. अत्र वहामि इति पदस्य अन्तिमवर्णः इकारः, अपि च अहं वहामि प्लस् अहं वहाम्यहम् तत्र यण् सन्धिः भवति. अत्र अर्थः कः? अहं भगवान् वदति अहं योगक्षेमं वहामि. केषां योगक्षेमं? साधकानां योगक्षेमम् इति भगवान् श्रीकृष्णः भगवद्गीतायाम् अर्जुनम् उद्दिश्य वदति. अत्र एकं पदमस्ति, सर्वे पश्यन्तु, बोधयन् इति पदमस्ति. बोधयन् इति पदं नूतनं पदम् अस्माकं कृते. तस्य नाम अस्ति शत्रन्तं, शत्रन्तप्रत्ययः, शत्रप्रत्ययः इति वदामः. यदि शत्रप्रत्ययः पुंलिङ्गे योजयामश्चेत् बोधयन् इति भवति. पठन्, गच्छन्. भगवद्गीतायाम् एकः श्लोकः अस्ति, अन्यः श्लोकः, तत्र तस्मिन् श्लोके सर्वाणि पदानि शत्रन्तप्रयोगे सन्ति. अत्रापि बोधयन् इति पदं तत्र प्रत्ययः. भगवान् श्रीकृष्णः अर्जुनं बोधयित्वा किं वदति, किं कथयति? साधकानां योगक्षेमम् अहं वहामि इति परमात्मा उक्तवान्. परन्तु वयम् अत्र अस्माभिः ज्ञातव्यं योगः इत्युक्ते किम् अपि च क्षेमम् इत्युक्ते किम् अत्र एव दत्तमस्ति. वदतु महोदय, योगः इत्युक्ते किम्?
योग नाम अप्राप्तस्य प्राप्तिः.
तावदेव. भवान् वदतु, अप्राप्त्यस्य प्राप्तिः.
अप्राप्तस्य प्राप्तिः
इत्युक्ते?
इत्युक्ते the one which cannot be attained will be fulfilled.
अत्र अत्र अस्य अर्थः किम् इत्युक्ते, यदि भवतः पार्श्वे किमपि नास्ति चेत् भगवान् ददाति. इफ् यु डोण्ट् हेव् संथिङ्ग् हि विल् गिव् यु. तदेव योगः इत्युक्ते अप्राप्यस्य प्राप्तिः. वाट् एवर् यु डोण्ट् हेव् यु विल् गेट् इट्. तदेव योगः. अपि च क्षेमं, क्षेमम् इत्युक्ते किम्? अत्र एव दत्तमस्ति. वदतु.
प्राप्त्यस्य रक्षणम् इति क्षेमम्.
प्राप्तस्य रक्षणं क्षेमं इत्युक्ते, अत्र यदि भवान् किमपि अत्र भवता प्राप्यते तस्य रक्षणं करोति भगवान् इत्युक्ते, तदर्थमेव भगवान् उक्तवान् अहं योगक्षेमं वहामि, साधकानां योगक्षेमम् अहं वहामि इति भगवान् स्वयम् उक्तवान् भगवद्गीतायाम्. अत्र जीवने योगः इत्युक्ते प्राप्तिः, क्षेमम् इत्युक्ते तस्य रक्षणं. तस्य
रक्षणं
he'll give you whatever you need, and at the same time he'll take care of you. Whatever is given, it is safe. He'll take care of it.
Yes, I'm bagini.
Kshemam ichukte tasya rakshanam. Cha atyantam apekshitam jivane praptihi api cha tasya rakshanam atyantam apekshitam. Apekshitam ichukte?
अत्यन्तम् अपेक्षितम्.
अपेक्षितम्
आवश्यकं. वाट् एवर् वि रिक्वैर्
आवश्यकम्
आवश्यकम्.
उत्तमं महोदय, धन्यवादः. अधुना वयम् इदानीं पर्यन्तं वयं सप्तककारान् योजयित्वा
भगिनी भगिनी सन्देहमस्ति. अपेक्षितम् इति लौकिकव्यवहार कारणार्थम् आवश्यकता एव अपेक्षितम् अर्थः.
अत्र महोदय पश्यतु, वाक्यं पश्यतु पुनः एकवारम्. अत्र वाक्यं किं दत्तमस्ति? जीवने, अस्माकं जीवने योगः अपि च क्षेमं च अत्यन्तम् अपेक्षितम् एव. इत्युक्ते अत्र योगः इत्युक्ते प्राप्तिः, क्षेमम् इत्युक्ते रक्षणं. द्वयमपि वदतु महोदय.
अपेक्षित, केन् यु जस्ट् टेल् मी इन् इङ्ग्लिश् मेडम्? ऐ एम् एक्साक्ट्लि ऐ अण्डर्स्टाण्ड् बट् ऐ एम् नाट् वेरि क्लियर् अबौट् इट्. अपेक्षितम् इच्छा.
Generally, we expect it. Ichcha.
Ichcha is the right word, or any other
expectation, right? Expectation. Ummeed. Expectation.
Expectation. Tada vadamaha.
Oh. Bahut santosh. Dhanyawad bhagini.
Astu mahodaya. Kinchit mute karomi. अधुना वयम् इदानीं पर्यन्तं केवलं करपत्रविषये एव वयं पठितवन्तः. अधुना वयं पुनः एकवारं अत्र अभ्यासपुस्तके किं दत्तमस्ति इति किञ्चित् पश्येम. अत्र कादम्बरी भगिनी, भवती एकवारं वदतु, अहं प्रश्नं पृच्छामि.
अस्तु
भगिनी, भवती ह्यः किं कृतवती?
अहं ह्यः अहं पाठशालां गच्छामि.
पाठशालाम् अहं किं पृष्टवती? एकवारं पश्यतु, अहं किं पृष्टवती? मम प्रश्नः कः? पुनः एकवारं भवती ह्यः किं कृतवती? तस्य उत्तरं किं भवति भगिनि, वदतु.
अहं ह्यः पाठशालां गतवती.
उत्तमं, तथा वक्तव्यम्. अहं ह्यः पाठशालां गतवती, अपि च किं श्रुतवती? किमपि वदतु भगिनि, उत्तरं किमपि भवेत्.
गीतं
श्रुतवती. अनन्तरं भवती किं पठितवती ह्यः?
अहं संस्कृतं पठितवती.
उत्तमं, भवती कुत्र गतवती?
अहं मन्दिरं गतवती.
उत्तमम्. अत्र सर्वे पश्यन्तु, अत्र ह्यः वयं जानीमः, वयं पठितवन्तः एव ह्यः, श्वः, अद्य, परन्तु ह्यः इति पदं भूतकालार्थे भवति. अहं किं पृष्टवती, भगिनीं किं पृष्टवती? वाट् डिड् ऐ आस्क् भगिनी? भवती किं कृतवती? भवती कुत्र गतवती? भवती किं श्रुतवती? भवती किं पठितवती इति एव अहं पृष्टवती. इत्युक्ते अत्र गतवती, पृष्टवती, अनन्तरं कृतवती, पठितवती, श्रुतवती, एतानि पदानि कानि? नूतनानि पदानि अस्माकं कृते. इत्युक्ते एतेषां नाम अस्ति तवतु प्रत्ययान्तपदानि. तवतु, अत्र संस्कृतभाषायां धातवः सन्ति. धातवः इत्युक्ते रूट् आफ् द वर्ब् अस्ति. धातुतः प्रत्ययाः विधीयन्ते. धातुतः प्रत्ययं योजनेन तदा क्तवतु प्रत्ययं योजनेन क्तवतु प्रत्ययान्तरूपाणि सिद्ध्यन्ति. अत्र एतानि पदानि क्तवतु प्रत्ययान्तरूपाणि, परन्तु भूतकालार्थे तस्य उपयोगं कुर्मः. इत्युक्ते अत्र प्रत्ययाः सन्ति, परन्तु केचन प्रत्ययाः भूतकालार्थे भवन्ति, केचन प्रत्ययाः वर्तमानकालार्थे भवन्ति, परन्तु अत्र तावत् प्रत्ययं, तस्मिन् विषये अधुना वयं किञ्चित् ज्ञास्यामः. अत्र पुनः अत्र भगिनी सर्वे द्वितीयं करपत्रं पश्यन्तु. अत्र एकवारम् अत्र भूतकालरूपाणि इति दत्तमस्ति, द्वितीयं करपत्रम्. तस्मिन् द्वितीये करपत्रे भूतकालरूपाणि, क्तवत् प्रत्ययान्तरूपाणि दत्तानि. सर्वे पुरतः स्थापयन्तु एकवारं द्वितीयं करपत्रम्. भगिनि अहं पृच्छामि, एकवारं वदतु, गच्छति इति क्रियापदमस्ति, गच्छति इति पदस्य क्तवत् रूपं वदतु.
गतवान्,
पुंलिङ्गे गतवान्, स्त्रीलिङ्गे किं भवति?
गतवती.
उत्तमम्. आगच्छति?
आगतवान्.
स्त्रीलिङ्गे?
आगतवती.
पिबति?
पीतवान्, पीतवती.
उत्तमं. नयति?
नीतवान्, नीतवती.
आनयति?
आनीतवान्, आनीतवती.
विशति?
विष्टवान्, विष्टवती.
भगिनी अत्र पश्यति वा, अत्र किम् अभवत्? अत्र अस्माकं क्रियापदमस्ति विशति, परन्तु क्तवत् रूपं किम् अभवत्? विष्टवान्, विष्टवती. तत्र बहवः नियमाः सन्ति, बहूनि सूत्राणि सन्ति तेषां कृते. इफ् यु वाण्ट् टु लर्न् वै दे आर् गोयिङ्ग् टु why these words are like this, there are so many rules created by Panini Maharshi. Tadarthameva atra vishati iti padasya ktavat pratyanta rupam vishtavan apicha vishtavati strilinge. Punaha agrimam patit pagini.
drishtavan drishtavati
agrimam
prishtavan prishtavati
atra upavishati tyaktavati bhavati upavishati tasya rupam kim
upavishtavan upavishtavati
pasyati
दृष्टवान् दृष्टवती
अत्र पश्यन्तु सर्वे पश्यति इति क्रियापदं दत्तमस्ति परन्तु क्तवत् प्रत्ययान्तरूपं दृष्टवान् इति दत्तमस्ति तथा किमर्थं किमर्थं चेत् अत्र पश्यति इति क्रियापदं दृष् धातुतः आगच्छति दृष् धातुतः पश्यति इति लट्लकाररूपम् आगच्छति तदर्थमेव अत्र क्तवत् प्रत्ययान्तरूपं दृष्टवान् दृष्टवती अनन्तरम् अग्रिमं पठतु
पृच्छति पृष्टवान् पृष्टवती
उत्तमम् अग्रिमं
तिष्ठति स्थितवान् स्थितवती
खादति उत्तिष्ठति वदतु
उत्तिष्ठति उत्तिष्ठवान् उत्तिष्ठवती
खादति
खादितवान् खादितवती लिखति लिखितवान् लिखितवती
अत्र पश्यतु भगिनी अत्र एकवारं पश्यतु भगिनी अत्र अधुना तिष्ठति इति पदमस्ति तत्र स्थितवान् इति भवति कथं तथा तिष्ठति इति पदं पदात् परन्तु अत्र क्तवत् रूपं स्थितवान् इति दत्तमस्ति किमर्थम् इत्युक्ते तत्रापि धातुः अस्ति स्थाधातुः स्थाधातुतः तिष्ठति इति क्रियापदम् आगच्छति तदर्थमेव अत्र भूतकालरूपं स्थितवान् अत्र उत्तिष्ठति तस्य रूपम् उत्थितवान् इति भवति तद् अत्र अन्यं विषयः अन्यः विषयः अस्ति तत् किम् इत्युक्ते अत्र पृच्छति पृष्टवान् भवति परन्तु खादति खादितवान् अत्र पश्यन्तु इकारः आगतः खादितवान् लिखति वदतु भगिनि
लिखितवान् लिखितवती
उत्तमम् इत्युक्ते अत्रापि लिखति इति पदमस्ति परन्तु लिखितवान् लिखितवती इति तत्र इकारः आगतः दट् ई केम् फ्रम् वेर् कुतः आगतः इकारः इत्युक्ते तत्र बहवः नियमाः सन्ति बहूनि सूत्राणि सन्ति इत्युक्ते तस्य नाम अस्ति व्याकरणे तस्य नाम अस्ति इडागमः कुत्र कुत्र इडागमः भवति कुत्र इडागमः न भवति तस्य विषये तस्मिन् विषये बहवः नियमाः सन्ति अत्र अत्र पठति पठितवान् अत्र इकारः आगतः लिखति लिखितवान् अत्रापि इडागमः आगतः परन्तु अत्र पृच्छति पृष्टवान् तत्र नास्ति इडागमः कुत्र इडागमः भवति कुत्र इडागमः न भवति इति एकः मुख्यबिन्दुः व्याकरणे संस्कृत ग्रामर् इट्स् अ वेरि इम्पार्टेण्ट् पायिण्ट् अन्लेस् यु नो द रूल्स् यु केनाट् क्रियेट् दिस् वर्ड्स् करेक्ट्लि यु केनाट् कन्स्ट्रक्ट् द वर्ड्स् करेक्ट्लि तेषां कृते सूत्राणि सन्ति पाणिनिना अष्टाध्याय्यां बहूनि सूत्राणि लिखितानि भवन्तः श्रुतवन्तः वा अष्टाध्यायी नाम्ना एकं पुस्तकमस्ति हव् यु हर्ड् अबौट् दट् बुक् अष्टाध्यायी वदन्तु कोऽपि जानाति वा अष्टाध्यायी श्रुतवान् वा महोदय
हव्
यु हर्ड् अबौट् दट् बुक् उत्तमम् उत्तमम् इत्युक्ते अत्र इडागमः कुत्र इडागमः भवति कुत्र न भवति इति विषये बहवः नियमाः सन्ति. अग्रिमं पठतु भगिनि. हसति
हसति हसितवान् हसितवती चलति चलितवान् चलितवती
वदतु
क्रीडति क्रीडितवान् क्रीडितवती
उत्तमम् पचति
पचति पक्ववान् पक्ववती
उत्तमं पक्ववान् पचति पक्ववान् पक्ववती त्यजति
त्यजति त्यक्तवान् त्यक्तवती
वदति
वदति उदितवान् उदितवती
उत्तमं वक्ति अत्र सर्वे पश्यन्तु वयम् इदानीं पर्यन्तं वयं जानीमः वदति इति एव क्रियापदं वयं जानीमः. इदानीं पर्यन्तं वयं न श्रुतवन्तः वक्ति वदति इत्युक्ते अत्र वदति वक्ति पदद्वयमस्ति. किमर्थं तथा इत्युक्ते वदति इति क्रियापदं वद् धातुतः आगच्छति. उक्ति वक्ति वक्ति इति क्रियापदं वच् वच् धातुतः आगच्छति. अत्र पदद्वयमस्ति परन्तु अर्थः समानः. वदति उदितवान् वक्ति उक्तवान्. इदानीं पर्यन्तं वयं वदति जानीमः अपि च उक्तवान् जानीमः. किमर्थं चेत् अत्र वदति इति पदं किञ्चित् प्रसिद्धं पदं तथा एव उक्तवान् साधारणतया वयम् उक्तवान् सः किम् उक्तवान् सा किम् उक्तवती इति एव वदामः. परन्तु अत्र उदितवान् इति पदं रूपं तु किञ्चित् नूतनं रूपं साधारणतया उदितवान् इति न वदामः. साधारणतया वयं किं वदामः महोदय भवान् किम् उक्तवान् पुनः एकवारं वदतु तथा वदामः. इत्युक्ते अत्र एकं प्रसिद्धं रूपम् अस्ति वदति इति प्रसिद्धं रूपं तथा एव उक्तवान् इति प्रसिद्धं रूपं करोति वदतु भगिनि करोति
करोति कृतवान् कृतवती
तावदेव. इत्युक्ते अत्र इदानीं पर्यन्तं वयं भूतकालरूपाणि तावत् प्रत्ययान्तरूपाणि वयं पठितवन्तः. अग्रिमे पुटे अपि इतोपि बहूनि पदानि सन्ति बहूनि क्रियापदानि अपि च तेषां तावत् प्रत्ययान्तरूपाणि सन्ति. अत्र एकं वक्तुमिच्छामि तावत् प्रत्ययान्तरूपाणि सर्वदा भूतकालार्थे तेषाम् उपयोगं कुर्मः. वि यूस् देम् इन् द पास्ट् टेन्स् टु क्रियेट् अ सेण्टेन्स् इन् पास्ट् टेन्स् फर् पास्ट् टेन्स् वि यूस् द तावत् प्रत्ययान्तरूपाणि अपि च अण्ड् आल्सो वन् मोर् थिङ्ग् वाक्ये तावत् प्रत्ययान्तरूपाणि विशेषणानि भवन्ति विशेषणपदानि भवन्ति. अधुना वयं किं कुर्मः किञ्चित् पञ्चनिमेषपर्यन्तं वयं वाक्यानि रचयामः तावत् प्रत्ययान्तरूपाणि योजयित्वा किञ्चित् वाक्यानि लिखामः. सर्वे एकवारम् अभ्यासपुस्तकं पश्यन्तु अत्र अत्र सुब्बाराव महोदय भवान् वदतु अत्र अभ्यासपुस्तके प्रथमं पदं किम्
पुटसङ्ख्या
पुटसङ्ख्या कः वदति अत्र पुटसङ्ख्या
38 मैडम
अष्टात्रिंशत्तमे पुटे
अष्टात्रिंशत् भूतकालरूपाणि
पठतु महोदय. प्रथमं किं दत्तमस्ति?
पठति.
पठति इति पदस्य तवत् रूपं पुंलिङ्गे वदतु.
पुंलिङ्गे तवत् रूपं पठितवान्.
बहुवचनं किं भवति?
पठितवन्तः.
उत्तमं. स्त्रीलिङ्गे?
स्त्रीलिङ्गे पठितवती. बहुवचनं पठितवत्यः.
अधुना वयं किं कुर्मः इत्युक्ते एकं वाक्यं वदतु महोदय. पठति इति पदं योजयित्वा एकं वाक्यं वदतु.
अहं ग्रन्थालयं गत्वा पुस्तकं पठितवान्.
उत्तमम् उत्तमम्. इत्युक्ते अहं ग्रन्थालयं गत्वा पुस्तकं पठितवान्. अत्र बहुवचने वाक्यं रचयतु. पठितवन्तः.
वयं ग्रन्थालयं गत्वा पुस्तकं पठितवन्तः.
उत्तमं. तावदेव. तदर्थमेव तथा एव अत्र स्त्रीलिङ्गे अपि एकं वाक्यं वदतु. सीता. सीता. सीता योजयतु.
ओके. सीता भगवद्गीता पठितवती.
उत्तमं. सीता भगवद्गीतां पठितवती.
भगवद्गीतां पठितवती.
पठितवत्यः. स्त्रीलिङ्गे बहुवचनरूपं किम्?
स्त्रीलिङ्गे
महिलाः.
ते महिलाः.
ताः महिलाः.
ताः महिलाः भगवद्गीतां पठितवत्यः.
उत्तमं. ताः महिलाः भगवद्गीतां पठितवत्यः. परन्तु ते योजयित्वा वदतु.
ते महिला.
न ते किमर्थं ते महोदय? अत्र स्त्रीलिङ्गे बहुवचने किं भवति? ताः भवति. परन्तु ते उक्तवान् भवान्. ते इति पदं बहुवचने पुंलिङ्गे भवति. ते जनाः.
ते जनाः भगवद्गीतां पठितवन्तः.
तावदेव. तथा एव. यदि भवान् कर्तुमिच्छति चेत् द्वितीयमपि करोतु. पतति. पतति इति पदं लकारः कः महोदय?
पतति.
पतति. पतति लकारः कः?
लकारः कः?
लक् लकारः.
ओके ओके. लकार पतति.
पतति इति लक् लकारः. इत्युक्ते पतति इति क्रियापदं वर्तमानार्थे अस्ति अस्मिन् वाक्ये. अत्र पतति इति पदं क्रियापदं. पतति इति रूपं लट् लकारे अस्ति. इत्युक्ते वर्तमानार्थे अस्ति. तस्य भूतकालरूपाणि किं भवन्ति वदतु.
पतितवान्.
बहुवचने?
बहुवचने पतितवन्तः.
स्त्रीलिङ्गे?
स्त्रीलिङ्गे पतितवती. बहुवचनं पतितवत्यः.
उत्तमं. भवान् वाक्यं रचयितुं शक्नोति चेत् एकं वाक्यं रचयतु. पतति. पतति इत्युक्ते अर्थः कः प्रथमतया वदति?
फालिन्.
तावदेव. वाक्यं रचयतु.
अहं
बालिका. बालिका योजयत् महोदय. बालिका. अत्र अत्र पश्यन्तु, पतति इति पदम् अत्र अकर्मकपदम्. अतः बालिका पतति.
बालिका पतति.
अत्र बालिका पतति इति भूतकालार्थे वदतु.
बालिका क्रीडाङ्गणे पतितवती.
तावदेव. बालिका क्रीडाङ्गणे पतितवती. पतितवान् योजयित्वा वदतु. बालकः
पुंलिङ्गं पुल्लिङ्गं बालकः क्रीडाङ्गणे पतितवान्
पतितवान् इति पदस्य बहुवचनरूपं पुंलिङ्गे
बहुवचनं पतितवन्तः
स्त्रीलिङ्गे बहुवचनरूपं
पतितवत्यः
उत्तमं तावदेव. इत्युक्ते अत्र अस्मिन् पुटे तावत् प्रत्ययान्तरूपाणि दत्तानि, परन्तु अधुना दशवादनम् अभवत्, अस्माकं पार्श्वे कथा अपि अस्ति, अपि च बहवः विषयाः सन्ति, बहूनि करपत्राणि अपि सन्ति. वयं किं कुर्मः इत्युक्ते आगामिसप्ताहे पुनः एकवारं तावत् प्रत्ययान्तानां विषये पुनः एकवारं पठित्वा कथाम् अपि पठिष्यामः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः, नमस्कारः.
धन्यवादः, नमस्कारः.
धन्यवादः, शुभरात्रि.
शुभरात्रि.
धन्यवादः भगिनी.
हा वदतु महोदय.